सर्वे ऊचुः परब्रह्मरूपं चिदानन्दरूपं सदानन्दरूपं सुरेशं परेशं गुणाधिं गुणेशं गुणातीतमीशं मयूरेशमाद्यं नदा स्मो नदा स्मः जगद्वन्द्यमेकं परोङ्कारमेकं गुणानां परं कारणं निर्विकल्पं जगत्पालकं हारकं तारकन्तं मयूरेशमाद्यं नदा स्मो नदा स्मः महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशं सदा भक्तकोशं परं ज्ञानकोशं मयूरेशमाद्यं नदा स्मो नदा स्मः अनादिं गुणादिं सुरादिं शिवाय महातोषदं सर्वदा सर्ववन्द्यं सुरार्यन्तकं भक्तिमुक्तिप्रदन्तं मयूरेशमाद्यं नदा स्मो नदा स्मः परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् असङ्ख्यावतारं निजाज्ञाननाशं मयूरेशमाद्यं नदा स्मो नदा स्मः अनेकक्रियाकारणं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशमाद्यं नदा स्मो नदा स्मः महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदा गम्यरूपं जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशमाद्यं नदा स्मो नदा स्मः महेशादिदेवी सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपं सदा कामरूपं कृभाम्बो निधिन्दं मयूरेशमाद्यं नदा स्मो नदा स्मः सदा भक्तानां त्वं प्रसभ परमानन्दसुखदो यतस्त्वं लोकानां परमकरुणामाशु तनुषे षडूर्मीषां वेगं सुरवर सदानाशय विभो ततो मुक्तिश्लाघ्या तव भजनतो नन्दसुखदा किमस्माभिस्तोत्रं जगवदने शक्यमतुलं विधातुं वाहरम्यं गुणनिधिरसि प्रेम जगतां न चास्माकं शक्तिस्तव गुणगणं वर्णिभुमहो त्वदीयोऽयं वारान्नदिरिव जगत्सर्जनविधिः कौवाच एवं सुदानस्ते मुं प्रार्थयामासुरादरात् यदुक्तं ते मयूरेश तत्कृतं परमं वच सर्वेषां सुरसङ्घानामवध्योऽयं हतो सुरा ततोगात् पार्वती तत्र जगवे चालिङ्गतं शिवोऽपि प्रययौ तत्र समालिङ्गतमब्रवीत् सम्यक् कृतं त्वया वत्स त्रैलोक्यं हर्षनिर्भरं सिन्धोर्वः सर्वसुरैरसाध्यो न च ते श्रमः पराक्रमवतः सर्वलोकरक्षारतस्य च चतुर्वेदादिरूपस्य सर्वविद्यानिधेरपि एवमुक्त्वा गतास्ते तु सर्वे स्वस्थानमादृताः मयूरेशं नमस्कृत्य ततो देवाब्रुवं शतम् इदं यः पठते स्तोत्रं सकामान् लभते किलान् सहस्रावर्तनात् कारागृहस्थं मोचयेर्जनम् अहितावर्तनान्मर्त्यो साध्यं यत् साधयेक्षणात् सर्वत्र यमाप्नोति श्रियं परमदुर्लभां पुत्रबान्धवां चैव वशतामखिलं नयेत्।